तन्नामदुह्यम् पराजैर्यत्वाभीते अह्वयेताम् वयोधै उदरस्तभ्रात् पृथिवीञ्जामभीते भ्रातुः पुत्रान् मघवन्द्यद्विषाणः महत्तन्नामगुह्यम् पुरस्मृज्येन भूतम् जनयोजेन भव्यम् रत्नम् जातम् ज्योतिर्यतस्य प्रियम् प्रियाः समाविशन्तपम् च आरोदसी अरुणारोदमध्यम् पञ्च देवाङ्गेतुषः सप्त सप्त चतुस्त्रिम् सदा पुरधा वितष्टे स्वरूपेण ज्योतिषा विव्रातेन यदूषाौच्च प्रथमा विभागामजनयोजेन पुष्टस्य पुष्टम् यतते यामित्वमवरम् परस्य महन्महत्या सुरत्वमेकम् विधन्दद्राणम् दमने बहूनाम् जीवानम् सन्तम् परितो जगाद देवस्य पश्य काव्यम् महित्वाद्यापपादसह्य समान चात्मना साको अरुणस्तु भर्णहायो महसूरस्तनादनीरः यच्छिकेत सत्यमित्तन्नमोघम् वसुस्पार्घमुतजेतो ददाता अयिभिर्दते विष्ट्यापोंस्यानियेभिरोक्षद्वत्रहत्याय वज्री ये कर्मण क्रियमाणस्य मह्नरे ते कर्ममुदजायन्तदेवाः या कर्माणि जनयन् विश्वौजासस्थिरा विश्वमानास्तु राणान् ीत्वे सोमस्य दिवावृधानः सूरो निर्युधादयबद्धस्यून्